ॐ शुक्लाम्बरधरं
परं
विष्णुर्शिवं
विष्णुं शशिवर्णं चतुर्भुजं
ध्यायेत् सर्वविघ्नोपशान्तये।
रूपिणी
सरस्वती नमस्तुभ्यं वरदे कामरूपिणी
विद्यारम्भं
विद्यारम्भं करिष्यामि
करिष्यामि
सुगमेता।
निर्मे सदा।
सूत्र वयं यथा पाण्डवानाम् अज्ञातवासात् पूर्वं दौन्यमहर्षिः तत्र उपदेशं कृतवान् पाण्डवानाम् उद्दिश्य इति, तत्र वयं गतवन्तः खलु गतसप्ताहे। अत्र इतोपि अनेकानेक श्लोकाः सन्ति, कथं महाराजस्य कश्चन कस्यचन महाराजस्य आस्थाने स कार्यं कुर्वन्तः जनाः कथं तेषां कार्यं तैः कथं क्रियेत, तत्सर्वं तेषां सेवावृत्तिः सेवावृत्तिना कथं भूयेत तत्सर्वं सः विशदीकरोति। किमर्थमित्युक्ते ते इदानीं पाण्डवानां अभिज्ञानं बहिः न प्रकटयन्ति खलु, अतः तत्र आसने कामपि सेवां कृत्वा एव वर्षकालं यावत् तैः यापितव्यमस्ति, कालः यापितव्यः। अतः यथा महाराजस्य अभिमानं प्राप्नुवन्ति तथा तैः वर्तितव्यम् इति सः उपदिशति। महाराजस्य प्रीतिपात्राः कथं भवेयुः इति सुवर्णपुष्पितां पृथ्वीं विखिन्वन्ति त्रयी जनाः, शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्। वस्तुतः एतत् सुभाषितसङ्ग्रहे एषः श्लोकः योजितः अस्ति खलु, तत् जानन्ति सर्वे, बहु प्रसिद्धः श्लोकः।
एजितः अस्ति इति उक्तवती वा भवती? सुभाषितसङ्ग्रहे
सङ्कलित खलु सुभाषितसङ्ग्रहः, केचन श्लोकाः कविना उक्ताः, केचन श्लोकाः पुरातन पुराणेभ्यः काव्येभ्यः अपि सङ्गृहीताः सङ्कलिताः सन्ति सुभाषितत्रिशतीमध्ये।
ओ, कलिताः इति उक्तवती भवती, अस्तु अस्तु, तत्र क्रियापदं सम्यक् न श्रुतवान् अतः एव।
ओ, योजितः इति अहम् उक्तवती।
ओ, अस्तु अस्तु।
अतः एतत् पञ्चतन्त्रस्य विषये इदानीं विष्णुशर्मणा उक्तः अस्ति एषः श्लोकः, यः पूर्वमेव महाभारते आगतः। एषः श्लोकः एव पुनः सुभाषितसङ्ग्रहे अपि दृश्यते। सुवर्णपुष्पितां पृथ्वीं विचिन्वन्ति त्रयी जनाः, शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् इति। सुवर्णपुष्पितां पृथ्वीं विचिन्वन्ति इति वाक्यस्य पूर्णता अस्ति। के विचिन्वन्ति इत्युक्ते जनाः, एते त्रयी जनाः किमर्थं तथा इत्युक्ते विधाः जनानां विधाः इति वक्तुं त्रयो जनाः खलु त्रयी न, किमर्थम् ईकारः इति अहं चिन्तितवती। त्रयः जनाः कथमस्ति भवतां पुस्तके?
नरास्त्रयः इति अस्ति.
विचिन्वन्ति अनन्तरं
नरास्त्रयः.
ओहो, अत्र त्रयः त्रयोः जनाः इति अस्ति पुस्तके. अत्र तथा एव त्रयः जनाः इत्युक्ते जनसमूहाः. यः ते के इत्युक्ते शूरः, कृतविद्यः, अनन्तरं यः सेवितुं जानाति सः इति त्रिविधाः जनाः सुवर्णपुष्पितां पृथ्वीमेव विचिन्वन्ति इति. तत् अर्थः कः? सुवर्णपुष्पितां पृथ्वीम् इत्युक्ते अत्र पृथ्वी सुवर्णं, पृथ्व्यां सुवर्णम् इति पुष्पजातिः नास्ति खलु तत्र. परन्तु सुवर्णम् इति बहु अमूल्यमस्ति सुवर्णं. तत्र अमूल्यवस्तूनां सम्पादनं यत्र भवति तादृशप्रदेशं गच्छन्ति एते जनाः इति. परन्तु तत् केवलं किं वदामि, रूपकालङ्कारः इति. तत्र पृथ्वीं चिन्वन्ति इति न, तत्र वस्तुतः अर्थः अस्ति तादृशस्थानं प्राप्नुवन्ति इति. यत्र बहु लाभः अस्ति, यत्र सफलता भवति तेषां कार्यस्य, तादृशस्थानं तादृशक्षेत्रं गत्वा एव चित्वा एव कार्यं कुर्वन्ति. यथा एतेषां प्रयत्नः, एतेषां कार्यं सफलतां प्राप्नोति तथा तादृशम् एव क्षेत्रं चिन्वन्ति एते जनाः. एते के इत्युक्ते शूरः, कृतविद्यः, विद्या कृता येन सः कृतविद्यः, अनन्तरं यः सेवितुं जानाति, सेवावृत्तिं कर्तुम् इच्छति, तदपि फलपूर्वकसेवावृत्तिम् एकः यत् यः कर्तुम् इच्छति सः अपि यत् क्षेत्रं बहु लाभदायकम् अस्ति तादृशं क्षेत्रमेव विचिन्वन्ति इति अर्थः. तत्र यथा साफ्ट्वेर् इण्डस्ट्रि मध्ये बहु लाभः, धनलाभः भवति इति सर्वे अत्र एव कार्यं कुर्वन्ति खलु, तथा
वस्तुतः पेट्रोलियम् इञ्जिनियरिङ्ग् इत्यत्र इतोपि लाभः अधिकः अस्ति.
ओ, अतः तत्र जनाः इतोपि चतुरतराः.
आमां, तथा न विरलतराः कर्मकारिणः, विरलतराः, अतः लाभः अधिकः.
हा हा, तथा वा. भवान् किं कुत्र कार्यं करोति?
अहं गूगल् संस्थायां कार्यं करोमि, सङ्गणकक्षेत्रे एव.
ओ, तत्र बेरिया मध्ये.
आम्.
ओहो, अस्तु. अत्र कोऽपि प्रश्नः?
स्पष्टः अस्ति. कृतविद्याः इति इत्युक्ते किम् इत्युक्तवती?
तत् सम्यक् पाण्डित्यं प्राप्तवान् इति कृतविद्या इत्युक्ते. केवलं पाण्डित्यं प्राप्नोति चेदपि न पर्याप्तं. यस्य विवेचनाशक्तिः विवेकशाली अस्ति यः, तादृशजनाः इति. केवलं पाण्डित्येन सर्वदा लाभः न भवति खलु. तस्य पाण्डित्यस्य सदुपयोगं यः करोति सः एव चतुरः, सामर्थ्यशाली, विवेकशाली इति.
साधु.
अनन्तरं शूरः अपि. सा सेवाया प्रभुहिता ग्राह्या वाक्यविशेषतः आश्रयेत् प्रार्थिवं विद्वान् तद्वारेणैव नान्यथा. सा सेवा या प्रभुहिता ग्राह्या वाक्यविशेषतः आश्रयेत् पार्थिवं विद्वान् तद्वारेण एव न अन्यथा इति. अत्र या प्रभुहिता अस्ति सा सेवा एव ग्राह्या सर्वैः, उत्तमसेवकैः सादृशी सेवा एव ग्राह्या. तादृशं पार्थिवमेव विद्वान् आश्रयेत्, तद्वारेण एव सः अधिकलाभं प्राप्नोति, न अन्यथा इति. अतः प्रथमं प्रभोः प्रीतिः यथा भवति, प्रीतिं यथा सम्पादयति, तथा कार्यं कुर्यात् विद्वान्. तदा एव प्रभोः अपि हितं भवति, तस्य हितस्य कारणात् प्रभोः सन्तोषं भवति चेत्, प्रीतिदायकं भवति चेत् सेवकस्य कार्यं, सेवकस्यपि लाभः भवति, प्रभुना साहाय्यं दीयते इति अर्थः. एकक्षणम्. अत्र कोऽपि प्रश्नः अस्ति वा?
वाक्यविशेषतः इत्युक्ते प्रभो वाक्येभ्यः इति वा?
तत्र एकक्षणं. अस्तु, इदानीं बेस्बाल् क्रीडा भवति खलु, इदानीं बास्टन् रेड् साक्स् इदानीमेव जयं, रेड् साक्स् जनेन जयः प्राप्तः इति पतिः इदानीमेव उक्तवान् अतः मध्ये आगत्य. सः बहु क्रीडां बहु तत् द्रष्टुं तस्य आसक्तिः बहुधा अस्ति, अतः उक्तवान्
सोपि संस्कृतभाषी वा? सोपि संस्कृतभाषी वा
सः वा?
आं
न न
न
किञ्चिदपि न, आसक्तिः अपि नास्ति. किम् उक्तवक्तव्यम्? इदानीं गच्छामः. अत्र वाक्यविशेषः इत्युक्ते उक्तिः अस्ति इति, विशेषं वाक्यम् अस्ति अथवा विशेषोक्तिः अस्ति, या उक्तिः वदति सा सेवा या प्रभुहिता ग्राह्या इति उक्तिविशेषः इति तावदेव. यो न वेत्ति गुणान् यस्य, न तं सेवेत पण्डितः, न हि तस्मात् फलं किञ्चित् सुकृष्टा दूषरादिव, सुकृष्टात् ऊषरादिव. यो न वेत्ति, यः न वेत्ति गुणान् यस्य, न तं सेवेत पण्डितः, न हि तस्मात् फलं किञ्चित् सुकृष्टात् ऊषरात् इव. उपमालङ्कारः. किम् इव ऊषरादिव, सुकृष्टात् ऊषरात्. ऊषरः इत्युक्ते किम्? ऊषरभूमिः इत्युक्ते
न जानामि.
ऊषरभूमिः इत्युक्ते यत्र किमपि न वर्धते सस्यं. वदतु.
सस्योत्पत्ययोग्य क्षार बहुल भूमेरिव, अथ
साररहितभूमिः भोः ऊषरात् इत्युक्ते यत्र न वर्धते
सस्योत्पत्य योग्य क्षार बहुल भूमेरिव लिखितमस्ति.
अस्तु, सस्योत्पत्तिः कृते सस्योत्पत्तेः कृते अयोग्यम्, अयुक्तं भूमिः, योग्यं न, किमपि न वर्धते तत्र ऊषरभूमिः इत्युक्ते बेरन् लेण्ड् इति वदामः खलु तथा. तत्र सुकृष्टादपि, सम्यक् कृष्टं चेदपि उषरभूमौ सुपृष्टा चेदपि उषरभूमिः किञ्चिदपि सस्योत्पत्तेः कृते योग्या न भवति. कृष्टा इत्युक्ते निकर्षणम् इत्युक्ते अर्थः कः?
हलेन भूम्याः मृत्तिकायाः कर्षणं.
कर्षणं तादृशकर्षणं भवति चेदपि तस्यां भूमौ किमपि सस्योत्पत्तिः न भवति. अतः तादृश ऊषरभूमिः ऊषरभूमेः इव किञ्चिदपि फलं न प्राप्नोति न भवति. केन? यः यस्य गुणान् न वेत्ति न तं सेवेत पण्डितः. यस्य गुणान् इत्युक्ते अत्र यः इति पदस्य अर्थः राजा. यस्य गुणान् इत्यत्र यस्य इति पदं कं सूचयति?
उक्तिं सूचयति वा? पूर्वश्लोके उक्तम् उक्तिं.
न न न सेवकं इदानीं परस्पर वाक्यविशेषतः इति न अग्रे भिन्नः भवति. विषयः एकः एव परन्तु भिन्नभिन्न बिन्दवः भवन्ति अत्र. इतः पूर्वम् आगतं पण्डितः सम्यक् चिन्तयित्वा योग्यं महाराजम् एव चिनोति इति अर्थः. प्रथममपि तथा एव कृतविद्यश्च शूरश्च यः जानाति सेवितुं सः पृथ्वीं सुवर्णपुष्पितामेव चिनोति इति चिन्वन्ति इति आगतं खलु. तत्रापि यः राजा ये सेवकानां गुणान् सम्यक् अवगच्छति तादृशं राजानम् एव उत्तमजनाः पण्डिताः चिन्वन्ति इति प्रथमश्लोकस्य अर्थः. अतैव सुवर्णपुष्पितं भूमिम् इति आगतं. तथा एव अग्रे प्रभोहिता ग्राह्या वाक्यविशेषतः केवलं सेवकस्य गुणं दर्शयति. पुनः अत्र कं राजानं चिनोति पण्डितः इति विषये अत्र श्लोकः. यस्य सेवकस्य गुणान् राजा सम्यक् अवगच्छति वेत्ति तादृशं महाराजम् एव पण्डितः सेवेत न अन्यथा. कथं किमर्थम् इत्युक्ते सुकृष्टात् ऊषरात् किं फलपि सुकृष्टादपि ऊषरभूमेः किं फलं भवति? किमपि न. अतः यद्यपि सेवकः बहु सम्यक् कार्यं करोति परन्तु अपि तस्य गुणान् राजा न वेत्ति चेत् तस्य किं फलं तेन किं फलं भवति? अतः उत्तमं राजानं शृणोतु इति उक्तिः. द्रव्यप्रकृतिः नोऽपि सेव्यः सेव्यगुणान्वितः भवत्या जीवनं तस्मात् फलं कालान्तरादपि. द्रव्यप्रकृतिहीनोऽपि सेव्यः सेव्यगुणान्वितः भवति आजीवनं तस्मात् फलं कालान्तरादपि. कश्चन राजा अस्ति सः सेव्यः. सेव्यः इत्युक्ते हि सः सेवार्थं योग्यः इति अर्थः. सः सेव्यः सः सेव्यगुणान्वितः. यः सेवितुं योग्यः सः सेव्यः. सेव्यगुणान्वितः सः राजा. द्रव्यप्रकृतिहीनोऽपि तस्य अधिकराज्ये अधिकं धनं नास्ति चेदपि तस्य बलं नास्ति चेदपि सः सेव्यः. किमर्थम् इत्युक्ते सः सेव्यगुणान्वितः. अतः आजीवनं भवति तस्मात् फलं कालान्तरादपि. इदानीमेव न भवति चेदपि लाङ्ग् टर्म् सक्सेस् इति वदामः खलु रिसल्ट्, तथा किञ्चित् कालानन्तरं फलं फलं प्राप्तुं वयम् अर्हामः इति. अपि अनुवद किम्
आशा अस्ति इदानीं राजा द्रव्यरहितमपि अस्ति, भविष्यत्काले फलम् आशसे.
आम्, परन्तु सः सेवितुं योग्यः राजा भवति चेत् इदानीं तस्य अधिकं फलदायकं धनं नास्ति चेदपि अग्रे फलदायकं भवति. अपि स्थाणुमदासीनः शिष्यन् परिगतः क्षुधा न त्वेवानात्मसम्पन्ना वृत्तिनीहेत पण्डितः. भवन्तः एतत् किञ्चित् कुर्वन्तु.
न त्वज्ञानात्मसम्पन्नाद् वृत्तिमीहेत
द्वितीया पङ्क्तिः.
आमाम्. अपिस्थाणुवदासीनः शुष्यन् परिगतः क्षुधा न त्वज्ञानात्मसम्पन्नाद् वृत्तिमीहेत पण्डितः. पदच्छेदः अपि स्थाणुवत् आसीनः शुष्यन् परिगतः क्षुधा न तु अज्ञानात्मसम्पन्नात् वृत्तिम् ईहेत पण्डितः. पुनः तथैव वदन्नस्ति पण्डितः.
अत्र अधिकतया एकः विषयः भिन्नभिन्नरूपेण उच्यते, अतः एव अहं मध्ये मध्ये कांश्चन श्लोकान् त्यक्त्वा अपि पठितुं अर्हामि इति चिन्तयामि, परन्तु अत्र भवतु एतत्.
स्थाणुवत् इति अर्थं न अवगच्छामि. स्थाणु इत्युक्ते किं?
स्थाणु इत्युक्ते स्तम्भः इति केवलं तावदेव.
निश्चलत्वं वा?
निश्चलत्वं.
अस्तु. शुष्यन् परिगतः नाम
क्षुधापरिगतः.
ओ, क्षुधापरिगतः. अस्तु अस्तु. पण्डितः वृत्तिम् अज्ञानात्मसम्पन्नात् न तु ईहेत इति मुख्यं वाक्यं. पण्डितः वृत्तिम् न ईहेत अज्ञानात्मसम्पन्नात्. कीदृशः पण्डितः अपि न ईहेत? क्षुधा परिगतः, शुष्यन्, स्थाणुवत् आसीनः अपि न ईहेत. तादृशेन तादृशात् राज्ञः सेवा.
तदेव इदानीं पण्डितः क्षुधा शिष्यन् परिगतः चेदपि स्थाणुवदासीनः अपि अनात्मसम्पन्नात् इति अस्ति, अज्ञानसम्पन्नात् इति अस्ति खलु भवतां पुस्तके?
आम्.
अज्ञानात्म अस्ति वा अज्ञानसम्पन्नात् इति अस्ति वा?
अज्ञानात्मसम्पन्नात्.
अस्तु, अज्ञानात्मसम्पन्नात् पण्डितः वृत्तिं न ईहेत, न इच्छति इति.
न इच्छेत्.
आम्. क्षुधा परिगतः चेदपि, शुष्कत्वं प्राप्तवान् चेदपि सः तादृशराजानं न ईहेत. अस्तु, चिन्ता अत्र सरलः एव अस्ति श्लोकः.
सेवकः स्वामिनं द्वेष्टि कृपणं पुरुषाक्षरम् आत्मानं किं
परुषाक्षरम्?
ओ आमां, परुषाक्षरं. सेवकः स्वामिनं द्वेष्टि कृपणं परुषाक्षरम् आत्मानं किं स न द्वेष्टि सेव्या सेव्यं न वेत्ति यः. यः सेव्यम् असेव्यं च सेव्या सेव्यं, यः सेव्या सेव्यं न वेत्ति तादृशः जनः आत्मानं किं न द्वेष्टि इति द्वितीयपङ्क्तौ अस्ति. प्रथमपङ्क्तौ कीदृशः जनः नाम सः तादृशः जनः सेवकः स्वामिनं द्वेष्टि इति अवगतं प्रथमपादे. कृपणं
कीदृशं स्वामिनं कीदृशं स्वामिनं
ओ हा कृपणं पुरुषाक्षरं स्वामिनं सेवकः द्वेष्टि तादृशः सेवकः यः सेव्या सेव्यं न वेत्ति सः आत्मानं किं न द्वेष्टि इति.
अतः यदि सः सेव्या सेव्यं न वेत्ति यः तम् आत्मानमेव आत्मानमेव किं न द्वेष्टि इत्युक्ते तत्र यदि न सः न जानाति तदा सः आत्मानमेव द्वेष्टि इति अर्थः. तत्र आत्मवञ्चना एव भवति इति. यदि सः न वेत्ति कृपणं पुरुषाक्षरं स्वामिनं द्वेष्टि एव उत्तमः सेवकः. तादृशकृपणं पुरुषाक्षरम् इत्युक्ते यः बहु क्रूरवचनं वदति सः पुरुषाक्षरं परुषम् अक्षरं यस्य सः पुरुषाक्षरं तादृशं राजानं सेवकः द्वेष्टि. यदि सः तथा न करोति सः यो सेव्या सेव्यं न जानाति तदा आत्मवञ्चना एव तेन क्रियते इति अर्थः. अतः किं न द्वेष्टि इत्युक्ते अर्थः तथा भवति.
साधु अवगतम्.
यमाश्रित्य न विश्रामं पठन्तु.
यस्याश्रित्य इति अस्ति
न यमाश्रित्य यम् आश्रित्य
अस्तु यमाश्रित्य विश्रामं क्षुधार्ता यान्ति सेवकाः.
आश्रित्य न विश्रामं
मम पुस्तके अन्यथा अस्ति यस्याश्रित्य विश्रामम् इति अस्ति.
ओ न अस्ति तत्र यमाश्रित्य न विश्रामं क्षुधार्ता यान्ति सेवकाः.
अस्तु यमाश्रित्य न विश्रामं क्षुधार्ता यान्ति सेवकाः सोर्कवन् रूपतिस्त्याज्यः सदा पुष्पफलोऽपि सन् यम् आश्रित्य न विश्रामं क्षुधार्ताः यान्ति सेवकाः क्षुधार्ताः सेवकाः यम् आश्रित्य विश्रामं न यान्ति तादृशः अर्कवत् नृपतिः त्याज्यः सदा यद्यपि सः नृपतिः पुष्पफलः अस्ति चेदपि.
अहं किञ्चित् कालं तत्र दूरवाणीं न गृहीतवती अस्य एकक्षणम् इति उक्त्वा किञ्चित् अन्यत् आसीत् मम अवधानम् अतः पुनः वदतु एकवारम्.
अस्तु क्षुधार्ताः सेवकाः यम् आश्रित्य न विश्रामं गच्छन्ति तादृशः अर्कवत् नृपतिः त्याज्यः सदा. सदा पुष्पफलोऽपि सन् यद्यपि तादृशः नृपतिः पुष्पफलः अपि स्यात्
अर्कवत् इति अस्ति खलु तदपि तत्र स्वीकर्तव्यम्. अत्र सादृशनृपतिः सदा त्याज्यः सदा पुष्पफलोऽपि सन् अर्कवत् इति. अर्कवत् इत्युक्ते
सूर्यवत् अर्कवत्
सूर्य अत्र सूर्यः इति न अर्थः. अर्कः अत्र सूर्यः न भवति. अर्क इति पदस्य अन्ये अर्थाः अपि सन्ति खलु अपरे. अत्र अर्कः इति किञ्चन सस्यं कश्चन वृक्षः वा सस्यं वा
अर्कवृक्षवत् लिखितमस्ति
अर्कवृक्षवत् इति तत्र फलयुक्तं बहु पुष्पयुक्तमेव भवति तत्र
मदार् आक् लिखितं हिन्दी मे
आम् अत्र तस्य नाम अहं न जानामि परन्तु कश्चन वृक्षः वृक्षविशेषः सर्वदा पुष्पभरितं फलभरितं भवति परन्तु भरितः भवति परन्तु तत्र पुष्पस्य वा फलस्य वा किञ्चिदपि उपयोगः न भवति अतः किं वृथा एव भवति तेषां पुष्पाणि फलानि तत्र यदा वदामः खलु वने अनेकानेक पुष्पवृक्षाः भवन्ति सर्वे वृक्षाः सर्वदा उत्तमवृक्षाः इति वक्तुं न शक्यन्ते खलु तथा एव अत्र पुष्पफलभरितोपि अर्कवृक्षवत् सः नृपतिः त्याज्यः किमर्थमित्युक्ते तम् आश्रित्य क्षुधार्ता सेवकाः विश्रामं न यान्ति इदानीं वने तादृशवृक्षः अस्ति पुष्पमस्ति फलमस्ति पुष्पाणि सन्ति फलानि सन्ति चेदपि तत् पुष्पं तानि पुष्पाणि तानि फलानि उपयोगाय न भवन्ति चेत् तत्र खादितुं न योग्याः सन्ति चेत् तत्र किं प्रयोजनं तथा तादृशः नृपः नृपतिः त्याज्यः तम् आश्रित्य क्षुधार्ताः सेवकाः न विश्रामं यान्ति चेत् तादृशनृपतिः त्याज्यः अर्कवत् अर्कवृक्षवत् कश्चन वृक्षः अस्ति तस्य नाम मया विस्मृतम् अत्र किञ्चिदपि तस्य फलं नास्ति अस्तु अग्रे
भवान् पठति वा रामकृष्णवर्य
आम्
प्रायतते राजमातरि देव्याश्च देव्याञ्च कुमारे मुख्यमन्त्रिणि पुरोहिते प्रतिहारे सदा वर्तेत राजवत् किञ्चित् लिखितं प्रायः राजवत् मम पुस्तके किञ्चित् रेखा अस्ति
राजमातरि देव्याञ्च कुमारे मुख्यमन्त्रिणी पुरोहिते प्रतिहारे सदा वर्तेत राजवत्
देवी इत्युक्ते राजमहिषी अर्ध
आम् राजमातरि राजमाता महिषी इत्युक्ते तत्र पत्नी इति अर्थः भवति राज्ञी इति प्रायः तत्र राज महा एक जनकः अपि राजा अस्ति चेत् राजपुत्रः अपि अस्ति चेत् तदा राजमहिषी राजमाता इति जनकस्य जननी इति भवति अर्थः अत्र राजमातरी महाराजस्य जननी देव्याम् इति यदस्ति तत् राजपत्नी
पटराज्ञी इति लिखितमस्ति नाम राज्ञिषु मुख्या
मम सन्देहः अस्ति अस्मिन् श्लोके अग्रिमं श्लोकं पठामः. अत्र
अर्थं हिन्दीभाषायाम् अस्ति, सेवक को चाहिए कि वह राजमाता, पटराणी, राजकुमारी, मुख्यमंत्री, पुरोहित और द्वारपाल इनसे हर समय राजा के समान ही आचरण करे.
ओ अत्र भवति भवति अर्थः. इदानीं यथा सः सेवकः राजानं सेवते तथा एव राजमातरीं राजमातरं देवीं कुमार राजकुमारं मुख्यमन्त्रिणं पुरोहितं प्रतिहारम् अपि तथा एव राजानं यथा सेवते तथा एव सेवेत इति अर्थः. तेषु अपि समानभक्तिं प्रदर्शयेत् उत्तमसेवकः इति.
अवगतम्.
राजवत् वर्तेत इति द्वितीया विभक्तिरूपे स्वीकर्तव्यम्. जीवेति प्रब्रुवन् प्रोक्तः कृत्यं कृत्यविचक्षणः करोति निर्विकल्पं यः स भवेत् राजवल्लभः. अत्र इतोपि केचन श्लोकाः राजवल्लभः भवेद् राजवल्लभः इत्येव भवति. राजवल्लभः इत्युक्ते राज्ञः प्रीतिपात्रः भवति इति, राज्ञः विश्वासपात्रः भवति इति अर्थः. यादृशसेवकः कृत्यं करोति, कृत्यविचक्षणः कृत्यं करोति, जीव इति प्रोक्तः सन् कृत्यं करोति, सः भवेत् राजवल्लभः इति. जीव इति प्रब्रुवन् यः राजा वदति सेवकं मद्रं जीव इति अनुग्रहं ददाति, आशीर्वादं ददाति. किमर्थम् आशीर्वादं ददाति सेवकम् उद्दिश्य? यदि सम्यक् करोति कार्यं, कृत्यविचक्षणः भूत्वा कृत्यं करोति चेत् तदा उक्तः भवति राज्ञा. तादृशः सेवकः राजवल्लभः भवति इति. तत्र कोऽपि प्रश्नः अस्ति? निर्विकल्पम् इत्युक्ते किञ्चिदपि चिन्तनं विना कार्यं करोति इति. यदा यदि महाराजा किमपि कार्यं वक्तुम् आदेशं ददाति तर्हि किञ्चिदपि चिन्तनं विना तत् कार्यं करणीयं सेवकेन. विचिन्तनम् इत्युक्ते तत्र कर्तुं हेजिटेशन् किञ्चिदपि न भवेत्, तथा झटिति तत् कार्यं करोति चेत् सेवकः, तदा राज्ञा अनुग्रहः लभ्यते.
समीचीनं
समीचीनं.
किं तत् तदेव प्रभुप्रसादः इति राजानुग्रहः, तदग्रे अग्रे आगच्छति. प्रभुप्रसादजं वित्तं सुपात्रेयो निवेदये वस्त्राद्यं च दधत्ति अङ्गं स भवेत् राजवल्लभः. दधात्यङ्गं वा दधत्यङ्गं वा?
दधात्यङ्गे इति अस्ति मम पुस्तके.
अङ्गे वा? प्रभुप्रसादं वित्तं सुपात्रे एव निवेदयेत् वस्त्राद्यं च दधात्यङ्गे. दधाति ददाति. ओके, स भवेत् राजवल्लभः. अस्तु, यदि प्रभुप्रसादजं वित्तम् इत्युक्ते यत् वेतनरूपेण वा बहुमानरूपेण वा प्रभुः ददाति, तद्वित्तं यः सुपात्रे नियोजये, उत्तमपात्रे नियोजये, वस्त्राद्यं च दधाति अङ्गे, सः राजवल्लभः भवेत्। तत्र कः विषयः, उद्देशः, सारांशः कः तत्र?
सुप्राप्तं यो निवेदयेत् इति अस्ति मम पुस्तके।
सुपात्रं वा सुपात्रं यो निवेदयेत् वा
सुप्राप्तं यो निवेदयेत्,
सत्पात्रे, सत्पात्रे लिखिता अस्ति।
सुपात्रे सत्पात्रे समानमेव, नियोजयेत् वा निवेदयेत् वा
मम पुस्तके।
नियोजयेत्
अस्तु, मम पुस्तके तु सुप्राप्तं यो निवेदयेत् इति अस्ति।
निवेदनं किं, निवेदनम् इत्युक्ते अर्पयेत् इति अर्थः भवति तत्र।
नियोजयेत् प्रायः अर्हति,
निवेदयेत् इत्युक्ते अपि तथा एव अर्थः भवति। इदानीं देवाय समर्पणं भवति खलु, तद् निवेदनम् इति वदामः, अर्पणमेव, तत् अर्पयेत् इत्येव अर्थः भवति। सुपात्रे यः अर्पयेत्, वस्त्राद्यम् अङ्गे दधाति, सः भवेत् राजवल्लभः। किमर्थं वस्त्राद् अङ्गे दधाति इति अस्ति, पश्यन्तु।
दधाति इति अस्ति, धा धातुः, दाना, अत्र अर्थम् अर्थः लिखितः अस्ति, जो प्रभु की प्रसन्नता प्राप्त हुए धन से संतोष करता है और उनके दिए वस्त्रादि को अपने अंगों पर धारण करता है, वही राजा का प्रिय होता है।
अहम् न श्रुतवती, एकवारं वदतु पुनः।
जो प्रभु की प्रसन्नता प्राप्त हुए धन से संतोष करता है और उनके दिए वस्त्रादि को अपने अंगों पर धारण करता है, वही राजा का प्रिय होता है।
ये तत्र कः विषयः अस्ति?
अग्रे गच्छामि।
यत् तेन दत्तं तत् सन्तोषेण अङ्गीकरोति इति अर्थः प्रायः। अत्र एम् आर् काळे पुस्तके अस्य श्लोकस्य विवरणमेव न दत्तम्। अतः मया अपि विषयः अत्र सम्यक् न किञ्चित् स्वीकरणमपि कष्टाय।
आम्
अस्तु, अग्रे गच्छामः। अन्तःपुरचरैः सार्धं यौवनमन्त्रं समाचरेत्, न कलत्रय नरेन्द्रस्य, स भवेत् राजवल्लभः। बहु सरलः, वदतु रामकृष्णमहोदय।
मम पुस्तके
अन्तःपुरचरैः सार्धं यौवनमन्त्रं
समाचरेत्, उपरितः अन्तःपरचरैः सार्ध यो न मन्त्रं समाचरेत्, न कलत्रैर्नरेन्द्रस्य, सः भवेद् राजवल्लभः। अन्तःपरचरैः सार्धं यः न मन्त्रं समाचरेत्, न
कलत्रैर्नरेन्द्रस्य। कलत्रम् इत्युक्ते किं?
स्पौस्,
पत्नी,
अस्तु,
नरेन्द्रस्य पत्नीभिः सह वा, अन्तःपुरचरैः सह वा, यः
भवेत् राजवल्लभः,
यः
राजानां प्रीति पात्रं भवति
भवति कः कः
अन्तःपरिचरे सार्धं यौवनं मन्त्रं समाचरेत्
तैः सह मन्त्रं न समाचरेत् मन्त्रम् इत्युक्ते परस्पर सम्भाषणं वा मन्त्रालोचनं न कुर्यात् इति अत्र तस्य अतिवृत्तिः भवति अन्तःपुरजनैः वा अथवा राजपत्नीभिः सह सः मन्त्रं सलापं करोति चेत् तत् न योग्यम् इति दूरे स्थातव्यं तेन अन्तःपुरजनैः जनेभ्यः अथवा राजपुरुषेभ्यः दूरे स्थातव्यम् इति नो इण्टर्फरेन्स् सम्मतोऽहं प्रभोर्नित्यम् इति मत्वा व्यतिक्रमेत् कृच्छ्रेष्वपि न मर्यादां स भवेत् राजवल्लभः वदन्तु
ओ भवती किञ्चित् उत्प्लुतिं कृत्वा अग्रे गतवती
क्रमः नास्ति
तथा वा
श्लोकद्वयम् अस्ति मध्ये
परन्तु अन्तःपुरादि
अन्यः श्लोकः अस्ति वा परन्तु मम पुस्तके अग्रिमः श्लोकः संख्या अस्ति
द्योतं यो
मम पुस्तके
अन्यः श्लोकः अस्ति वा
अन्यश्लोकद्वयम् अस्ति
ओ पठतु पश्यामः
द्यूतं योऽयमदूताब्धं हलां हलाहलोपमं पश्येद्दारान् वृथाकारान् स भवेद् राजवल्लभः
सः श्लोकः अपि अस्ति अग्रे
अग्रे
अतः अहं चिन्तयामि
क्रमपरिवर्तनं
पुस्तके श्लोकद्वयं नष्टम् इति किमर्थम् इत्युक्ते श्लोकसङ्ख्या 56-57 अपि श्लोकद्वयमस्ति मध्ये तदनन्तरमेव द्यूतं यो यमदूताभम् अनन्तरम् अग्रिमः श्लोकः युद्धकाले अग्रगो गयः सः वा श्लोकः अग्रे
तस्मात् अग्रे आम् युद्धकाले ग्रणीय
अतः तत्पूर्वं श्लोकद्वयमस्ति
क्रमः भिन्नः अस्ति
क्रमः भिन्नः न श्लोकद्वयं भवतां पुस्तके नास्ति इति मन्ये
अन्तःपुर 54
54 वा तत्
55 पठ अनन्तरं 54
अग्रिमः श्लोकः द्योतं वा
आं द्योतम् इति अस्ति
द्योतमस्तु
तत् पठन्तु अनन्तरं तत्र अहं वदामि यदि श्लोकद्वयमस्ति मम पुस्तके तस्य विषयं वदामि अनन्तरं एतत् पठतु द्यूतं यो यमदूताभं
द्यूतं यो यमदूताभं हलां हालाहलोपमां पश्येद्दारान् वृथाकारान् स भवेद् राजवल्लभः
अर्थः भवेत्
राजवल्लभः यः दारान् पश्येत् वृथाकारान् सः भवेत् राजवल्लभः पुनः कीदृशः भवेत् राजवल्लभः यः द्यूतं यमदूताभं पश्येत् यमदूतवत् द्यूतं पश्येत् द्यूतक्रीडां सः भवेत् राजवल्लभः पुनः कः भवेत् राजवल्लभः हालां हालाहलोपमां हालां नाम
हालाहलम् इत्युक्ते
परन्तु
न जानामि हालाम् इत्युक्ते
हालाहलम् इत्युक्ते विषम
तदवगतं हालाम् इत्युक्ते किम् ओ मद्युपानम् ओ अस्तु अस्तु मद्यम्
हाला इत्युक्ते सुरा सुरा
अर्थः इदानीं स्पष्टः
आला सुरा हाला हल
मद्यं द्यूतं दारान् च तेषु यः आसक्तिं न प्रकटयति सः राजवल्लभः भविष्यति
दारान् वृथाकारान् पश्येत् इति
राजान् दारान् इत्युक्ते राजप्रमदा
तदेव अत्र विशेषः शब्दः सः दाराः इति केवलम् एकां पत्नीमेव महिलामेव सूचयति चेदपि पुल्लिङ्गपदं तत् दाराः इति नित्यबहुवचनान्तम् अर्थः भवति पत्नी इति परन्तु पदं पुल्लिङ्गपदं यथा मित्रम् इति पदं नपुंसकलिङ्गं भवति तथा दाराः
व्यक्तिस्त्रीलिङ्गपदं
स्त्रीपदं पुल्लिङ्गपदं परन्तु अर्थः स्त्री स्त्री इति
व्यक्ति स्त्रीलिङ्गपदं भवति अस्ति यद्यपि पुरुष पुल्लिङ्गसन्दर्भे अपि प्रयोक्तव्यं व्यक्ति
युद्धकाले युद्धकालेऽग्रणीर्यः स्यात् सदा पृष्ठानुगः पुरे प्रभोर्द्वाराश्रितो हर्म्ये स भवेद् राजवल्लभः कः भवेत् राजवल्लभः युद्धकाले यः अग्रणीः स्यात् यः युद्धकाले अग्रे गच्छति सः राजवल्लभः भवेत् पुनः कः राजवल्लभः भवेत् पुरे नाम नगरे पृष्ठानुगः राजस्य पृष्ठतः गच्छति सः राजवल्लभः भवेत् पुनः कः राजवल्लभः भवेत् यः हर्म्ये नाम स्वस्य प्रासादे राजभवने प्रभोर्द्वाराश्रितः भवेत् नाम द्वारे एव स्थाति तस्य
सेवां प्रवेशः न करणीयः इदानीम् अग्रे भवति कर्णटकः आह इति वा
न सम्मतोऽहं विभोर्
ओ इदानीम् आगतं तत् ओ अतः एव क्रमः भिन्नः इति उक्तः सम्मतोऽहं
सम्मतोऽहं विभोर्तित्यमित्यम् सम्मतोऽहं विभोर्तित्यम् विभोर्नित्यं सम्मतोऽहं विभोर्नित्यम् इति मत्वा व्यतिक्रमेत् कृच्छ्रेष्वपि न मर्यादां स भवेत् राजवल्लभः कृच्छ्रेषु नाम किम् किम्
आपत्काले
आपत्काले अस्तु 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 शारदा गुरुः बहिर्गता इति दृश्यते
कृच्छ्रेषु आपत्काले लिखति
एवम् अस्तु सम्मतोऽहं विभोर्नित्याम् इति मत्वा व्यतिक्रमेत् व्यतिक्रमणं नाम वर्तनम् इति वा
उल्लङ्घनम् उल्लङ्घयेत् उल्लङ्घयेत्
अस्तु 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 इदानीम् अवगतं सम्मतोऽहं विभोर्नित्यम् इति मत्वा यः कृच्छ्रेषु आपत्कालेषु अपि स्वस्य मर्यादां न उल्लङ्घनं करोति सः राजवल्लभः
दूरवाणी अधः पतिता अतः सम्पर्कः भग्नः
अस्तु. परन्तु श्लोकः अवगतः. रामकृष्णवर्यः सूचितवान् कृच्छ्रेषु नाम आपत्सु इति. कृच्छ्रेषु आपत्सु अपि यः मर्यादां कांश्चन मर्यादां न उल्लङ्घति उल्लङ्घते न अतिक्रमति न व्यतिक्रमति. अहं राज्ञः सम्मतोऽस्मि इति मत्वा यः न व्यतिक्रमति सः राजवल्लभः भवेत्.
एवं काष्ठकाले अपि तस्य अधिकनासिकाप्रवेशः न प्रवेशं न कुर्यात् इति. ओ अहं सर्वदा प्रभोः सम्मतोऽहम्, अहं सर्वदा मम कार्यम् अङ्गीकरोति इति अधिकगर्वः मास्तु इति व्यतिक्रमेत्. कष्टकाले अपि मर्यादां न अतिक्रमेत्, तस्य सीमां न अतिक्रमेत्. मर्यादा इत्युक्ते सीमा इति अर्थः अत्र.
श्लोकः
अपि अस्ति वा?
द्वेषि द्वेषपरो नित्यम् इष्टानामिष्टकर्म कृत् यो नरो नरनाथस्य स भवेत् राजवल्लभः.
तदपि बहु सरलः.
द्वेषि द्वेषपरो नाम ओ द्वेषिणां द्वेषं यः करोति.
महाराजस्य द्वेषिणां विषये एषः अपि सेवकः अपि द्वेषं प्रकटयति. तथा एव
नित्यं प्रकटयति. नित्यम् इष्टानाम् इष्टकर्मकृत् यः राज्ञे इष्टाः सन्ति तादृशेभ्यः इष्टकर्मकृत् इष्टम् इष्टकर्मणि कर्माणि करोति. इष्टकर्माणि करोति. सः नरो नरनाथस्य ओ नरनाथस्य इति अत्र अन्वयः गतः. सः राजवल्लभः भवेत्. अस्तु अवगतम्.
अत्र नरनाथस्य द्वेषी द्वेषपरः इष्टानाम् इष्टकर्म कृत् सः राजवल्लः भवेत् इति.
आम्
कर्मकृत् इति पदस्य रूपं किं तत्र?
कर्मं करोति इति कर्मकृत्.
यः कर्मं करोति सः कर्मं. महीभृत् यथा भवति, महीं भरति इति महीभृत्, तथा पुण्यकृत् कर्मकृत् तत्सर्वं.
समासविशेषः वा?
समासः वा उपदसमासः भवति वा कृदन्तरूपं भवति वा इति तत्र बहु सूक्ष्मव्यत्यासः भवति. तत्र किञ्चित् सूक्ष्मविचारान् परिशीलयामश्चेदेव भवति. परन्तु तत्र अर्थः तथा कर्मं करोति इति कर्मकृत् इति. किमर्थम् इत्युक्ते समासे उपपदसमासे उदाहरणानि कृत् इति रूपेण न दत्तं कुत्रापि. कुम्भकारः शास्त्रज्ञः तादृश एव, शास्त्रं जानाति इति शास्त्रज्ञः, तादृश उदाहरणानि एव दत्तानि. एतत् विषयम् अहं हेग्डे महोदयमपि पृष्टवती एकवारं. तत्र सः बहु सूक्ष्मविषयाः सन्ति, तत्र भिन्नभिन्न अनेकसूत्राणि पठितव्यानि, अतः अधिकविवरणम् इदानीं मास्तु इति अपि उक्तं तेन. अतः अर्थं जानीमः तत् पर्याप्तं. यत्र कुत्रापि तस्य विवरणं दत्तं चेत् पश्यन्तु.
प्रोक्तः प्रत्युत्तरं नाह विरुद्धं प्रभुणा नयः न समीपे. आम् इतोपि श्लोकत्रयम् अस्ति.
ओ मम पुस्तके नास्ति. अस्तु वदतु. यो रणं शरणं वा?
न प्रोक्तः प्रत्युत्तरं नाह विरुद्धं प्रभुणा नयः न समीपेह सत्युच्छैः स भवेद् राजवल्लभः. सुलभमेव. यः राज्ञा प्रोक्तः प्रत्युत्तरं न वदति न आह. विरुद्धं प्रभुणा न यः प्रत्युत्तरं न वदति च न समीपे उच्चैः हसति. समीपे न उच्चैः हसति सः भवेत् राजः.
हास्यवचनं वदति चेदपि उच्चैः न हसितव्यं सेवकेन.
तद्वत् मन्यते भयवर्जितः प्रवासं स्वपुरावासं स भवेद् राजवल्लभः. यो रणं शरणं तद्वत् शरणम् इति रणं यः मन्यते भयवर्जितः भयवर्जितः रणं शरणम् इति मन्यते प्रवासं स्वपुरावासम् इति यः मन्यते च सः राजवल्लभः भवेत्. अन्तिमञ्च न कुर्यान्नरनाथस्य योषिद्भिः सह सङ्गतिं न निन्दां न विवादञ्च स भवेद् राजवल्लभः. न राज्ञः योषिद्भिः सङ्गतिं नाम स्नेहं यः न करोति, निन्दां न करोति, विवादं न करोति तैः सह ताभिः सह सः भवेत् राजवल्लभः. अत्र समाप्यते.
तत्र कर्णाटकः एतावत्पर्यन्तं दमनकेन उक्तं, तदग्रे गद्यं भवति. कर्णाटकः अथ भवान् तत्र गत्वा किं तावत् प्रथमं वक्ष्यति तत् तावद् उच्यताम् इति. तदा पुनः दमनकः वदति आह उत्तरादुत्तरं वाक्यं वदतां सम्प्रजायते.
अग्रिमे सप्ताहे अनुवर्तयामो वा? अद्य मया गन्तव्यम्.
ओ, अत्र विरमामः वा?
आम् अत्र विरमामः.
आं तत्र षष्टि ओ न भवतां पुस्तके सङ्ख्या भिन्ना अस्ति. अस्तु अत्र एव विरमामः. दमनकः यद् वदति तद् अग्रिमसप्ताहे पठामः.
आम् अस्तु
अस्तु.
सर्वे सन्तु निरामयाः, सर्वे
भद्राणि भद्राणि पश्यन्तु, कश्चित् दुःखभाग् भवेत्.
ॐ शान्तिः, शुभरात्रिः.
धन्यवादः.